एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। पर्यटनाय देशान्तर प्रवेशानुज्ञापत्रस्य भ्रष्टाचारस्य प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रम् उच्चस्तरीयानुसन्धानायोगस्य संघटनञ्च अभियाच्य प्रतिपक्षिदलैः संसद उपवेश अवरोधितो वर्तते। प्रतिनिधिसभाया ह्यस्तनोपवेशस्य प्रारभणस्य अनुपदमेव प्रतिपक्षिभि नेकपा माओवादी केन्द्रेण रासपा दलेन राप्रपा दलेन अन्यै विपक्षिदलैश्च गृहमन्त्रिणः त्यागपत्रम् अभियाच्य सदनस्य संचालने अवरोधः विहितः आसीत्। अवरोधस्य पश्चात् सभामुखेन देवराज घिमिरेभिधेन प्रथमम् अर्धघण्टायाः कृते उपवेशः स्थगितीकृतः आसीत्। पुनः उपवेशस्य उपवेशनाय अनुकूल वातावरणस्य सर्जनाभावानन्तरम् सूचनां प्रकाश्य सार्धद्वयवादनं यावत् उपवेशः स्थगितीकृतः। तत्पश्चादपि अनुकूलः वातावरणस्य अभावात् अद्य पूर्वाह्नस्य एकादशवादनाय उपवेशं निर्धार्य ह्यस्तनोपवेशः स्थगितीकृतः आसीत्। प्रतिनिधिसभायाः उपवेशस्य अवरोधनस्य समये सभामुखेन घिमिरेभिधेन उपवेशस्य संचालनाय दलानां प्रमुखसचेतकपदीयैः सचेतकपदीयैश्च सह भूयो भूयः विमर्शनं विहितम् आसीत्। विमर्शनस्य पश्चादपि विपक्षिदलानि गृहमन्त्रिणा त्यागपत्रेण अनुसन्धानायोगस्य संघटनेन च विना कथमपि उपवेशस्य संचालनं कर्तुं सहमतानि नाभूवन् तत्पश्चात् अद्यतनदिवसाय उपवेशं निर्धार्य ह्यस्तनोपवेशः स्थगितीकृतः आसीत्। सर्वकारेण छात्रवृत्ति परियोजनायाः कृते जापान सर्वकारात् प्राप्तव्यं द्वासप्तत्युत्तर पञ्चशताधिक मिलियन परिमितायाः जापान देशीय येन मुद्रायाः अर्थात् आसन्न त्रिपञ्चाशत् कोटिनां षट्सप्तत्या लक्ष्याणाञ्च रूप्यकाणाम् अनुदान सहायतां स्वीकर्तुं निर्णीतमस्ति। मन्त्री परिषदः गत सोमवासरस्य उपवेशस्य निर्णयान् सार्वजनिकर्तुं ह्यः संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ जापान सर्वकारात् प्राप्यमाणा अनुदान सहायता स्नातक स्तरे स्नातकोत्तरे च अधीयानेभ्य छात्रेभ्य छात्रवृत्ति प्रदानार्थं प्रयोक्ष्यते इति अज्ञापयत्। मन्त्री परिषद उपवेशेन नेपाल कृषि अनुसन्धान परिषदि कोरिया देशस्य ग्रामीण विकास प्रशासने च नेपालस्य कृषि क्षेत्रे प्रविधि हस्तान्तरण सम्बद्धायां संविधायां वृत्त्युपार्जनानुमति प्रणाल्या माध्यमेन नेपाली नागरिकाणां वृत्ति विकासाय कोरिया प्रेषण सम्बद्धायां संविधायां च हस्ताक्षराणि विधातुम् अधिकारः प्रदत्तोऽस्तीति मन्त्री गुरूङ असूचयत्। एवमेव मन्त्री परिषद उपवेशेन एतद् विक्रमवर्षीयां सार्वजनिक सेवा प्रसारण नियमावलीं खाद्य प्रणाली रूपान्तरणस्य रणनीतिक योजनाञ्च स्वीकर्तुं सप्तसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयं राष्ट्रिय खेलकूद विकासाधिनियमं संशोधयितुं निर्मितं विधेयकं सूचना प्रविधि वैद्युत संजाल सुरक्षा सम्बद्धं व्यवस्थार्थं निर्मितं विधेयकञ्च संघीय संसदि प्रस्तोतुं स्वीकृते प्रदानाय च निर्णीतमस्तीति मन्त्री गुरूङ असूचयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना आसन्न वर्षायामज प्रभावस्य पूर्वानुमानं विधाय सम्भावित विपत् संकटानां न्यूनीकरणस्य विषये पूर्वेद्युः बबरमहल स्थानवर्तिनं जलवायु विज्ञान विभागं प्राप्य सूचना गृहीता अस्ति। अस्मिन् वर्षे गतवर्षाणां तुलनायाम् अधिकवृष्टेः पूर्वानुमानस्य विहितस्य दशायां विभागस्य पूर्वानुमान सूचनायाः प्रवाहस्य कार्यं कथं विधीयमानमस्ति कार्यमेतद् अतिरिक्तं प्रभावकारी कृत्वा सम्भाविता धनजनयो क्षतिः कथं रोद्धुं शक्यते इत्यस्मिन् विषये प्रधानमन्त्रिणा ओलिना अभिरुचि प्रकटिता अस्ति। विभागस्य अध्ययनं प्रस्तुतिं च श्रुत्वा प्रधानमन्त्रिणा ओलिना विभागस्य पूर्वानुमानं सूचनायाः प्रवाहञ्च लक्ष्यी क्षेत्रस्य जनतायां सहजभाषायां प्रभावकारी रूपेण च सम्प्रेषयितुं निर्दिष्टमासीत्। तदवसरे विभागस्य महानिर्देशकः कमलराम जोशी वर्षेऽस्मिन् ज्येष्ठस्य अष्टादशात् दिवसात् आगामिनः आश्विनमासस्य चतुर्दशं दिवसं यावत् वर्षायामजा वृष्टि अधिकरूपेण सम्भविष्यतीति प्रधानमन्त्रिणे ओलिने विज्ञापितवान् आसीत्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं राष्ट्रिय सावधानता केन्द्रेण ह्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। सिंहप्रासादवर्तिने प्रधानमन्त्री मन्त्री परिषदः कार्यालये आयोजिते कार्यक्रमे प्रधानमन्त्रिणः ओलिनः समक्षं केन्द्रस्य सचिवः सूरजकुमार वैद्यः प्रतिवेदनमिदं प्रास्तौत्। तदवसरे प्रधानमन्त्री ओली सुशासनस्य विकासस्य च मुख्यभारं गृहीत्वा वर्तमान सर्वकारः संघटितोऽस्तीत्यतः तदनुरूपतया प्रभावकारितया च कार्यं सम्पादयितुं निरदिशत्। प्रतिवेदने षोडशीया योजनायाः लक्ष्यानुसारेण भ्रष्टाचारस्य अन्त्यस्य सुशासनस्य च कृते केन्द्रेण सार्वजनिक निकायेषु प्रदेयां सेवां प्रभावकारिणीं विधातुं नियमनानुगमन सम्बद्धानि कार्याणि विधीयमानानि सन्तीति ज्ञापितं वर्तते। विश्वकीर्तिमानिना आरोहिणा कामिरिता शेर्पा इत्यनेन एकत्रिंशद्वारं सगरमाथा शिखरस्य सफलतापूर्वकं आरोहणं विहितमस्ति। सोलुखुम्बु जनपदस्य थामे स्थानस्य पञ्चपञ्चाशद्वर्षीयः शेर्पा ह्यः प्रातः चतुर्वादने सगरमाथा शिखरं प्राप्य एतत्पूर्वम् आत्मनैव स्थापितां कीर्तिम् अतिक्रान्तवान् वर्तते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् उपप्रधानार्थमन्त्रिणा विष्णुप्रसाद पौडेलेन आगामिनः आर्थिक वर्षस्य आयव्ययिकस्य विषये विज्ञापितं वर्तते। सर्वकारेण सांविधानिक व्यवस्थायाः अनुसारेण ज्येष्ठमासस्य पञ्चदशे दिवसे आयव्ययिकं प्रस्तोष्यते। एतस्यैव आयव्ययिकस्य विषये उपप्रधानार्थमन्त्रिणा पौडेलेन शीतलनिवासवर्तिनी राष्ट्रपतिभवनं प्राप्य विज्ञापितमस्तीति राष्ट्रपतेः स्वकीय सचिवालयेन सूचितं वर्तते। बाजुरा जनपदस्य जगन्नाथ ग्रामपालिकायाः द्वितीय ओडा क्षेत्रस्य काडाकोट स्थाने ह्य जीपयानस्य दुर्घटनायां रेडियो नेपालले कार्यरतेन कर्मचारिणा सहिता त्रयो जनाः मृताः सन्ति। दुर्घटनायां धनगढ़ी उपमहानगरपालिका वास्तव्य सम्प्रति बाजुरा जनपदस्य नेपाल दूरसंचार प्राधिकरणे कार्यरतः कार्यालय प्रमुखः पञ्चपञ्चाशत् वर्षीयः लोकबहादुर खड्का, जीपयान चालकः सप्तपञ्चाशत् वर्षीयः करण महतरा, रेडियो नेपालस्य काला जागरा कार्यालये कार्यरतः अष्टाविंशति वर्षीयः रविन्द्र धामी च मृताः सन्तीति बाजुरा जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। दुर्घटनायाम् आहतौ द्वौ जनौ सामान्योपचारानन्तरं कोल्ची आधारभूत चिकित्सालयात् हेलिकप्टर यानेन नेपालगंज आनीतौ स्तः। दुर्घटनायां मृतम् अस्माकं कर्मचारिणं रविन्द्र धामी इत्यमुं प्रति रेडियो नेपालः हार्दं श्रद्धाञ्जलिम् अभिव्यनक्ति। एवमेव नवलपरासी बर्दघाट सुस्ता पूर्व जनपदस्य मध्यबिन्दु नगरपालिकायाः सप्तम ओडा क्षेत्रस्य अमृसा काननी मोटरसाइकल यानस्य दुर्घटनायां द्वौ जनौ मृतौ स्तः।